इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना कनाडादेशस्य प्रधानमन्त्रिणा मार्क कार्नी इत्यनेन च सह प्रतिनिधिस्तरीया वार्ता कृता। भारत कनाडादेशयोः मध्ये विभिन्न क्षेत्रेषु त्रिषु सन्धिपत्रेषु हस्ताक्षराण्यपि जातानि। प्रधानमन्त्रिणा उक्तं यत् भारतं संवादस्य कूटनीतेः च माध्यमेन सर्वेषां विवादानां समाधानस्य समर्थनं करोति। पश्चिमेशियायां वर्धमानस्थित्या केन्द्रेण राज्यानां कृते परामर्शः प्रकाशितः यत् सावधानाः भवेयुः। पश्चिमेशियायाः वर्तमानस्थित्यानुसारम् एयर इण्डिया संस्थया युनाइटेड अरब अमीरात सऊदी अरब इजराइल कतर देशान् प्रति सर्वाः विमानसेवाः अद्य दिवसान्तं यावत् स्थगिताः। अपि च अशोधित तैलस्य मूल्यं 7% अधिकम् औन्नत्यम् अवाप्नोत्। पश्चिम एशियायां तीव्र तनावस्य कारणात् अद्य एशिया प्रशांत स्टॉक आपणं तीव्ररूपेण पतितम्। अथ वार्ताः विस्तरेण। अद्य भारत कनाडा देशयोः मध्ये विभिन्न क्षेत्रेषु त्रिषु सन्धिपत्रेषु हस्ताक्षराणि जातानि। अद्य नवदिल्ल्याः हैदराबाद हाउस इत्यत्र प्रधानमन्त्रिणा नरेन्द्रमोदिना कनाडादेशस्य प्रधानमन्त्रिणा मार्क कार्नी इत्यनेन च सह प्रतिनिधिस्तरीया वार्ता कृता। वार्तालापस्य समये उभौ भारत कनाडा देशौ सामरिक सहभागित्वस्य विविध क्षेत्रेषु अद्य पर्यन्तं प्राप्तायाः प्रगतिं समीक्षितवन्तौ। व्यापार निवेशः ऊर्जा कृषि शिक्षा अनुसन्धान नवान्वेषणं जनसम्पर्केत्यादिषु प्रमुख क्षेत्रेषु वर्तमान सहयोगस्य विषये अपि तौ अवलोकनं कृतवन्तौ। उभयोः मध्ये क्षेत्रीयस्य वैश्विकस्य च विकासस्य विषये अपि विचाराणाम् आदान प्रदानम् अभवत्। कनाडादेशस्य समकक्षीयेण मार्क कार्नी इत्यनेन सह संयुक्त वार्ताहर सम्मेलनं सम्बोधयन् श्रीमोदी अवदत् यत् पश्चिम एशियायाः वर्तमानस्थितिः अतीव चिन्तास्पदं वर्तते। सः अवदत् यत् भारतं संवादस्य कूटनीतेः च माध्यमेन सर्वेषां विवादानां समाधानस्य समर्थनं करोति।
पश्चिम एशिया की वर्तमान स्थिति हमारे लिए गहरी चिंता का विषय है। भारत डायलॉग और डिप्लोमेसी के माध्यम से सभी विवादों का समाधान का समर्थन करता है। इस क्षेत्र में मौजूद सभी भारतीय नागरिकों की सुरक्षा के लिए हम सभी देशों के साथ मिलकर काम करते रहेंगे।
30-2000 द्वैपाक्षिक व्यापारं 50 बिलियन डॉलर पर्यन्तं विस्तारयितुं भारत कनाडा देशयोः महत्वाकांक्षी लक्ष्यः निर्धारितः अस्ति इति श्रीमोदिना उक्तम्।
हमारा लक्ष्य है कि 2030 तक हमारा व्यापार 50 बिलियन डॉलर तक पहुंचे। आर्थिक सहयोग का पूरा पोटेंशियल अनलॉक करना यह हमारी प्राथमिकता है। इसलिए हमने कॉम्प्रिहेंसिव इकोनॉमिक पार्टनरशिप एग्रीमेंट को जल्द ही फाइनलाइज करने का निर्णय लिया है। इससे दोनों देशों में निवेश और रोजगार के नए अवसर बनेंगे।
प्रधानमंत्री श्री मोदी अवदत् यत् अद्य उभौ पक्षौ भारत कनाडा रक्षा संवादस्य स्थापनार्थं निर्णयं कृतवन्तौ। कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी अवदत् यत् कनाडादेशः भारतेन सह सम्बन्धं नवीकरोति, सम्बन्धं विस्तारयति च। सः अवदत् यत् उभौ देशौ वाणिज्ये रक्षायाम् ऊर्जायां च दृढम् आधारं निर्मीयन्ते। अवधेयं यत् कनाडादेशस्य प्रधानमन्त्री गतमासस्य 27 दिनांकादारभ्य 4-दिवसीया भारत यात्रायामस्ति। प्रधानमन्त्री कार्नी यः गतवर्षे मार्चमासे कार्यभारं स्वीकृतवान् सः भारतस्य प्रथमायां पूर्ण द्वैपाक्षिकयात्रायाम् अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिम एशियायाः स्थितिं समीक्षितुं गतसायं सुरक्षाविषयक मन्त्रिसभासमित्याः CCS सभायाः अध्यक्षता कृता। गतमासस्य 28 दिनांके ईरान देशे वायु आक्रमणानां विषये तदनन्तरम् अनेकेषु गल्फ देशेषु कृतानाम् आक्रमणानां विषये च समित्या सूचितम्। समित्या अस्मिन् क्षेत्रे विशालस्य भारतीय प्रवासी समुदायस्य सुरक्षायाः विषये गभीरं चिन्तां प्रकटितम्। पश्चिम एशियायां वर्धमान स्थित्या कारणात् केन्द्रेण राज्याणां कृते परामर्शः प्रकाशितः यत् सावधानाः भवेयुः। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अद्य राष्ट्रपतिः द्रौपदी मुर्मुः नवदिल्ल्याः महिलानां कृते चतस्रः योजनाः समर्पितवती। एतासु योजनासु लखपति बिटिया योजना, सहेली, पिंक स्मार्ट कार्ड, मेरी पूंजी मेरा अधिकार, निःशुल्क एलपीजी इति वातीन्धन सिलेण्डर योजना च अन्तर्भवन्ति। अस्मिन् अवसरे राष्ट्रपतिः मुर्मुः अवदत् यत् महिलाः समाजस्य अपरिहार्याः स्तम्भाः सन्ति इति।
महिलाओं को शिक्षित बनाना, उनका आत्मविश्वास बढ़ाना और उनको प्रोत्साहित एवं सहयोग देना हम सबका कर्तव्य है। हमें अपनी बेटियों को ये विश्वास दिलाना है कि वे सपने देखने और उन्हें पूर्ण करने की क्षमता रखती है तथा हम उनके सपनों को साकार करने में उनके साथ खड़े रहे हैं। जब एक बेटी शिक्षित होती है तो पूरा परिवार शिक्षित होता है। जब एक बेटी सक्षम बनती है तो पूरा समाज मजबूत होता है।
पश्चिम एशियायां द्वन्द्वः तीव्रतरः अभवत् यतोहि ईरान, इज़राइल, अमेरिका देशानां सैन्यदलानि मिलित्वा क्षिपणि ड्रोन आक्रमणानां नूतनः तरङ्गः प्रारब्धवन्तः। ईरानेन तस्य समर्थक सैन्यदलैः च इज़राइल खाति देशयोः उपरि च प्रक्षेपास्त्रं प्रहारं कृतवन्तः। तत्रैव इज़राइल अमेरिका देशौ च ईरान देशस्य लक्ष्यीकृतानि क्षेत्राणि आक्रमणं कृतवन्तः। ब्रिटेन, फ्रांस, जर्मनी देशाः च उक्तवन्तः यत् ते ईरान देशस्य आक्रमणानां सम्मुखीकरणाय अमेरिकायाः साहाय्यं कर्तुं सज्जाः सन्ति। तथा च खातिराज्यानां एकः समूहः अवदत् यत् तेषां पार्श्वे ईरानस्य आक्रमणानां प्रतिकारस्य अधिकारः अस्ति इति। यूके देशस्य प्रधानमन्त्री कीर स्टार्मरः ईरानी प्रक्षेपस्थलेषु रक्षात्मक आक्रमणार्थं ब्रिटिश सैन्याधारस्य उपयोगाय अमेरिकादेशस्य प्रार्थनां स्वीकृतवान्। अत्रान्तरे कुवैत देशस्य रक्षामन्त्रालयेन ख्यापितं यत् अनेकानि अमेरिकीय युद्धविमानानि विनष्टानि, परञ्च तेषां कर्मचारिणः जीविताः सन्ति। अद्य इज़राइल वायुसेनायाः सूचना आसीत् यत् ईरान देशः इज़राइल प्रदेशं लक्ष्यीकृत्य क्षिपण्याः प्रक्षेपणम् अकरोत् इति। पश्चिम एशियायाः वर्तमानस्थित्यानुसारम् एयर इण्डिया संस्थया यात्रा परामर्शः प्रकाशितास्ति। युनाइटेड अरब अमीरात, यूएई, सऊदी अरब, इज़राइल, कतर देशान् प्रति सर्वाः विमानसेवाः अद्य दिवसान्तपर्यन्तं स्थगिताः। एतदतिरिच्य अद्य यूरोप देशं प्रति निर्धारितानि कानिचन विमानयानानि अपि निरस्तानि सन्ति। उत्तरप्रदेशे अद्य होलिकादहनस्य सज्जता द्रुतगत्या प्रचलति। मुख्यमंत्री योगी आदित्यनाथः होलीपर्वणः शुभकामनाः नागरिकैः शान्त्या सौहार्देन च उत्सवम् आचरितुम् उक्तवान्। सहैव उत्सवे स्थानीय उत्पादानाम् उपयोगाय अपि प्रोत्साहितवान्। मुख्यमन्त्रिणा स्वस्य सन्देशे सर्वेषु मण्डलेषु सुरक्षाव्यवस्थाः सुदृढा सन्ति इति आश्वासितवान् तथा च प्रशासनस्य सहयोगाय जनाः प्रार्थितवान्। श्वः चन्द्रग्रहणेन बुधवासरे रंगैः उत्सवः भविष्यति। भारतऋतुविभागेन सम्भावना प्रकटितास्ति यत् आगामिषु पञ्चदिनेषु वायव्यभारतस्य भूतलप्रदेशेषु अधिकतमतापमानं क्रमेण 3-5 डिग्री सेल्सियस् यावत् संवर्धिष्यति। आगामि दिनद्वयोः देशस्य मध्यभागेषु अधिकतमं तापमानं क्रमेण 2-4 डिग्री सेल्सियस् यावत् संवर्धनस्य आशंका विभागेन प्रकटितास्ति। अस्मिन् मासे 4-6 दिनांकयोः गुजरात, कोंकण, गोवा इत्येतेषु प्रदेशेषु उष्णम् आर्द्रं च वातावरणं भविष्यति इति विभागेन सूचितम्। अशोधित तैलस्य मूल्यं 7% अधिकम् औन्नत्यम् अवाप्नोत्। पश्चिम एशियायां तीव्रतनावस्य कारणात् अद्य एशिया प्रशान्त स्टॉक आपणं तीव्ररूपेण पतितम् इति वार्ताः।